एषा रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल सर्वकारेण संघीय संसद अधिवेशनम् अस्यैव वैशाख मासस्य द्वादश दिवसाय आह्वातुम् राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् परामृष्टुम् निर्णीतम् वर्तते। मन्त्रिपरिषद ह्यस्तनोपवेशेन संसद वर्षाकालिकाधिवेशनम् अस्यैव वैशाखस्य द्वादशे दिवसे दिवा एकवादने उपवेक्ष्यमाणत्वेन आह्वातुम् परामर्शनाय निर्णीतमिति शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई अज्ञापयत्। संघीय संसदि विचाराधीनावस्थायाम् विद्यमानस्य विद्यालय शिक्षा विधेयकस्य यथासम्भवम् पारितीकरणस्य प्रयोजनाय संघीय संसद अधिवेशनम् आहूतमस्तीति सर्वकारेण ज्ञापितम् वर्तते। सर्वकारस्य पक्षतः विधेयकमेतद् पारितीकर्तुम् आवश्यक समन्वयम् सहजीकरणम् च विधातुमपि च उपवेशेन निर्णीतमस्ति। विभिन्नाः याचनाः उपस्थाप्य सप्ताहद्वयात् शिक्षकाः राजधान्यां प्रदर्शनं कुर्वाणाः वर्तन्ते। तेषां याचनायाः सम्बोधनस्य उद्देश्येन सर्वकारेण संघीय संसदः उपवेशः आहूतोऽस्तीति सर्वकारेण स्पष्टीकृतो वर्तते। अत्रान्तरे शिक्षकाणां याचनायाः सम्बोधनाय सर्वकारः तत्परोऽस्तीति सर्वकारेण स्पष्टीकृतं वर्तते। मन्त्रिपरिषद ह्यस्तनोपवेशेन नेपाल शिक्षक महासंघेन उत्थापितायाः याचनायाः सम्बोधनाय तत्परता अस्ति, तदर्थं संवादाय संवेदनशीलश्च वर्तते इति उल्लिखितम् अस्ति। महासंघस्य आह्वानेन विधीयमानं प्रदर्शनं प्रति सर्वकारस्य ध्यानाकर्षणं सम्भूतम् अस्तीति शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई प्रावोचत्। विद्यार्थिनां प्रवेशनस्य प्रवेशिका परीक्षायाः उत्तरपुस्तिकानां परीक्षणस्य द्वादशकक्षायाः राष्ट्रिय परीक्षायाश्च इदानीं समयोऽस्तीत्यतः विरोधस्य प्रदर्शनस्य च कार्यक्रमं स्थगीकृत्य अभिभावकानां विद्यार्थिनां च हितं केन्द्रे निधाय स्वस्य कार्यक्षेत्रं प्रत्यावर्तितुं सर्वे शिक्षकाः मन्त्रिपरिषदः उपवेशेन निर्णीताश्च अनुरुद्धाश्च वर्तन्ते। तथैव नेपाल शिक्षक महासंघेन उपस्थापितायाः याचनायाः पूरणस्य सन्दर्भे सर्वकारेण गृहकार्यं च प्रारब्धमस्ति। औपचारिक वार्ता समूहं निर्माय विमृष्टुं शिक्षा मन्त्रालयेन आहूतस्य आह्वानस्य प्रभावकारिणः अभवनस्य पश्चात् सर्वकारेण उच्चस्तरीयं विमर्शनं कर्तुं पूर्वकार्यं विहितमस्ति। एतदर्थं स्रोतसह व्यवस्थापनादिषु विषयेषु ह्य सर्वकारस्य सम्बद्ध मन्त्रालयानां मन्त्रिषु विमर्शनं सम्भूतमस्ति। विमर्शने अर्थमन्त्री विष्णु पौडेलः, गृहमन्त्री रमेश लेखकः, शिक्षामन्त्री विद्या भट्टराई च सहभागिनः आसन्। प्रधानमन्त्रिणा केपी शर्मा ओलिनः नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवाविदस्य च मध्ये मेलवार्ता सम्भूतास्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य विहितायां मेलवार्तायां शिक्षकाणाम् आन्दोलनस्य दलद्वयस्य सहमतेः क्रियान्वयनस्य दलद्वयस्य राजनैतिक संयन्त्रस्य उपवेशस्य आह्वानस्य च विषयेषु प्रधानमन्त्रिणः ओलिनः कांग्रेस दलस्य सभापतेः देवाभिधस्य च मध्ये विमर्शनं केन्द्रितम् आसीदिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। सुनसरी जनपदस्य देवानगंज ग्रामपालिकायां घटितायां गोलिका प्रहारस्य घटनायां संलग्नतायाः आरोपे जनत्रयं निगृहीतं वर्तते। निगृहीतेषु देवानगंज ग्रामपालिकायाः सप्तमवडाक्षेत्रस्य एकविंशति वर्षीयः शिवकुमार मेहता, प्रथमवडाक्षेत्रस्य रविन कुमार यादवः, पिन्टु यादवश्च सन्तीति सुनसरी जनपदस्य प्रहरी परीक्षकः सुमन कुमार तिमल सिन्हा अज्ञापयत्। गोलिका प्रहारस्य क्रमे शिवकुमार मेहता गभीरेण आहत वर्तते। शिवकुमारस्य प्रहरिणः नियन्त्रणे विराटनगरे उपचार विधीयमानो वर्तते। एकसमूहस्य व्यक्तयः निगृहीताः सन्ति। घटनायां संलग्नस्य अपर समूहस्य त्रयो जनाः इदानीमपि पलायिताः वर्तन्ते। तेषाम् अन्वेषणकार्यं जायमानमस्तीति प्रहरी परीक्षकः तिमल सिन्हा असूचयत्। गोलिकायाः प्रहारकेषु कामेश्वर यादवेन सहिताः त्रयोजनाः पलायिताः सन्ति निगृहिताः त्रयोजनाः पलायिताः त्रयोजनाश्च सीमक्षेत्रे स्थित्वा विभिन्न पराधिक गतिविधिषु संलग्नाः आसनिति प्रहरीपरीक्षकः तिमल सिन्हा असूचयत। प्रधानमन्त्रिणा त्रिभुवन विश्वविद्यालयस्य कुलपतिना च केपी शर्मा ओलिना विश्वविद्यालयस्य रिक्तोपकुलपतेः दायित्वं शिक्षाध्यक्षाय प्राध्यापकाय डाक्टर खड्ग केसी इत्यस्मै निर्धारितं वर्तते। उपकुलपतेः पदपूर्तेः अभावं यावत् त्रिभुवन विश्वविद्यालयस्य अधिनियमस्य अनुसारेण कुलपतेः ओलिनः गत त्रिंशत् दिवसस्य निर्णयस्य अनुसारेण शिक्षाध्यक्षाय केसी इत्यस्मै अधिकाधिक मासत्रयस्य कृते कार्य सम्पादनत्वेन दायित्वं निर्धारितं वर्तते। विश्वविद्यालयस्य उपकुलपतेः प्राध्यापकस्य डाक्टर केसरजंग बरालस्य त्यागपत्रं गत चैत्रस्य 28 दिवसे स्वीकृतम् आसीत्। नेपाल तैल निगमेन शिला तैलीय पेट्रोलियम पदार्थस्य मूल्यं न्यूनीकृतं वर्तते। निगम संचालक समितेः उपवेशेन गतरात्रौ मध्यरात्रितः क्रियान्वयनत्वेन पेट्रोल डीजल मृत्तिका तैलानां विक्रय मूल्य प्रतिलिटरमितं रूप्यकत्रयेण न्यूनीकर्तुं निर्णीतम् अस्ति। नेपाली कांग्रेस केन्द्रीय कार्यसमितेः उपवेशः सैव वैशाख मासस्य सप्तदशे दिवसे वस्ता सानेपावर्तिनी दल केन्द्रीय कार्यालये अस्यैव वैशाखस्य सप्तदशे दिवसे दिवा एकवादने उपवेक्षमाणत्वेन उपवेशः आहूतो स्थिति मुख्य सचिवः कृष्णप्रसाद पौडेलः असूचयत। उपवेशे केन्द्रीय कार्यसमितेः पदाधिकारिणः सदस्याः आमन्त्रित सदस्याश्च उपस्थित्यै आहूताः सन्तीति दलस्य मुख्य सचिवः पौडेलः असूचयत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः प्रदेश सर्वकारेणापि प्राकृतिकोपचार सम्बद्ध स्वास्थ्य पूर्वाधारे निवेशनम् विधेयम् इत्यत्र बलम् ददाति। दलस्य सहायक लोकमार्ग केन्द्रिताभियानस्य अन्तर्गतं नवलपुर जनपदस्य देवचुले नगरपालिकायाः षोडश वडा क्षेत्रस्य रजरस्थानवर्तिनी सामुदायिक प्राकृतिक चिकित्सालये ह्यः आयोजिते कार्यक्रमे अध्यक्ष प्रचण्डः चिकित्सालयस्य प्राकृतिक चिकित्सा शिक्षण चिकित्सालयस्य विश्वविद्यालयस्य च विकासाय सहयोक्तुं प्रतिबद्धतां व्यक्तवान्। तदवसरे अध्यक्ष प्रचण्ड स्थानीय स्तरे स्वास्थ्य पूर्वाधारस्य विकासाय समुदायस्य सहभागिता अपरिहार्यता स्थिति च अगदत् इति समाचाराः।